एस रेडियो नेपाल सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली काष्ठमण्डपस्य टेकुस्थितात् शुक्रराज ट्रपिकल संक्रामक रोग चिकित्सालयात् कोरोना विषाणु विरोधिना टीकाकरणाभियानस्य ह्यो वैद्युत सम्पर्क सञ्जालस्य माध्यमेन शुभारम्भम् व्यदधात्। अभियानमेतत् शुभारम्भमाणः प्रधानमन्त्री ओली आगामिनो मासत्रयस्य अभ्यन्तरे सर्वेभ्यो नेपालीभ्य कोरोना विषाणु विरोधी टीकाकरणं निःशुल्कं प्रदास्यते इति प्रतिबद्धताम् अभिव्यनक। प्रधानमन्त्री ओली अवासत जनतायाः जीवन रक्षणाय सर्वकारेण प्राथमिकता प्रदत्ता वर्तते। प्रधानमन्त्री ओली अवोचत् विश्वस्य विभिन्नैः राष्ट्रैः कोरोना विषाणु विरोधिनः टीकाकरणस्य क्रयणस्य सम्बन्धे वार्ता विहिता वर्तते। भारत सर्वकारेण सह उचित मूल्येन अतिरिक्त टीकाकरणस्य क्रयणस्य सम्बन्धेऽपि सर्वकारेण विमृश्यमानमस्ति। कार्यक्रमे स्वास्थ्य जनसंख्या मन्त्री हृदयेश त्रिपाठी कोरोना महामार्यां सन्नद्धेभ्य स्वास्थ्यकर्मी प्रवृत्तिभ्यो धन्यवादं व्याहरन् कोरोना महामार्या विरूद्धे अग्रपंक्तो स्थित्वा सेवां प्रापयतो जनान् टीकाकरणं ग्रहीतुम् अन्वरुणत्। समारोहे राष्ट्रपतिना विद्यादेवी भण्डारिणा कोरोना विरोधिने टीकाकरणाभियानाय प्रेषितः शुभकामना सन्देशः स्वास्थ्य जनसंख्या मन्त्रिणा हृदयेश त्रिपाठिना श्रावितः आसीत्। सन्देशे राष्ट्रपतिना भण्डारिणा विश्वस्य सर्वेषु राष्ट्रेषु कोरोना विरोधी टीकाकरणं न्यायोचितरूपेण वितरणीयम् इति उल्लिखितं वर्तते। अत्रान्तरे ह्य आराष्ट्रं चतुरशीत्यधिक नवसहस्रेषु जनेषु कोरोना विषाणो विरोधी टीकाकरणं विहितमिति स्वास्थ्य जनसंख्या मन्त्रालयस्य प्रवक्ता प्राध्यापकः डाक्टर जागेश्वर गौतमः अज्ञापयत्। प्रथमचरणे स्वास्थ्यकर्मीषु टीकाकरण केन्द्रेषु संलग्नेषु सव्यवस्थापने क्रियाशीलेषु च जनेषु स्वच्छीकरण कार्यं कुर्वत्सु सशक्त अशक्त वाहक यान चालकेषु च कोरोना विरोधी टीकाकरणं विधीयमानं वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयस्य अनुसारेण ह्य काष्ठमण्डपोपत्यकायाः अभ्यन्तरे सप्तदश केन्द्राणि आराष्ट्रं चेति कृत्वा समग्रतः शतत्रय केन्द्रेषु कोरोना विरोधी टीकाकरणं प्रारब्धमस्ति। प्रधानमन्त्री केपी शर्मा ओली भाषते नेपालस्य अन्तर्राष्ट्रिय सम्बन्धस्य सुदृढीकरणस्य सन्तोलनस्य च कार्ये सर्वकारेण महत्वपूर्णा उपलब्धिः अधिगतास्ति। नेपाल आदिवासी जनजाति महासंघेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे प्रधानमन्त्री ओली अभाषत नेपालस्य अन्तर्राष्ट्रिय सम्बन्धः सुदृढी भवन्नस्ति। नेपाल अन्तर्राष्ट्रिय मञ्चेषु स्वस्य विषयान् उपस्थापयितुं समर्थावस्थायाञ्च प्राप्तोऽस्ति। प्रधानमन्त्री ओली स्वस्य अधिकाराणां स्वत्वज्ञापनाय नेपालेन कालापानी लिपुलेक लिम्पिया धुरा क्षेत्रैः समाविष्टम् नूतन राजनीतिक मानचित्रं प्रकाशितमिति चर्चयन् अगदत् वार्तायाः सहमतेश्च आधारे भूमिः प्रत्यावर्तिष्यते। प्रधानमन्त्री ओली नेपालस्य सांस्कृतिक विविधतायाः परिचयस्य विषयं विवादस्य विषयं न कारयितुं च सर्वान् अन्वरुणत। कार्यक्रमे गृहमन्त्री रामबहादुर थापा अकथयत् सर्वेषु राजनीतिकान्दोलनेषु आदिवासी जनजातेः महत्वपूर्णं योगदानं वर्तते। वन वातावरण मन्त्री प्रेमबहादुर आले आदिवासी जनजातेः विकासाय सशक्तिकरणाय च शिक्षायां सर्वेषां प्राप्तौ सुनिश्चितता कर्तव्येति आवश्यकताम् न्यश्चिनोत्। सर्वकारेण एतद् विक्रमवर्षीयं वैज्ञानिक वन व्यवस्थापन कार्यविधिं निरस्तुं निर्णीतमस्ति। सम्प्रत्येव उपविष्टस्य मन्त्रिपरिषदः उपवेशस्य निर्णयान् ह्यः सार्वजनिक कुर्वन् संचार सूचना प्रविधि मन्त्री पार्वत गुरूङ सर्वकारेण एतद् विक्रमवर्षीयं वैज्ञानिक वन व्यवस्थापन कार्यविधिं निरस्तुं निर्णीतम् अस्ति इति अवोचत्। संचार मन्त्री गुरूङ सर्वकारेण शताब्दी पुरूषस्य सत्यमोहन जोशिनः स्वर्गीयस्य राष्ट्रकवेः माधव प्रसाद घिमिरेभिदस्य च चित्राङ्कितां पत्रचीटिकां प्रकाशयितुं निर्णीतम्। शीघ्रं राष्ट्रपतिना इयं पत्रचिटिका सार्वजनिक करिष्यते चेति अबोधयत्। सर्वकारेण नेपाले अग्रगामिने लोकतान्त्रिक परिवर्तनाय विहितानां सर्वेषां जनान्दोलनानां सशस्त्र संघर्षस्य च क्रमे उत्सर्ग जीवनानां हुतात्मनां परिवाराणां विलोपितानां व्यक्तिनां परिवाराणां लोकतन्त्रस्य योद्धॄणां द्वन्द्वपीडितानां विस्थापितानां च जनानां अपाङ्गतायुत व्यक्तिनाम् आहतानां पीडितानां च जनानां च अभिलेख संकलयिष्यते इति मन्त्री गुरूङ अगदत्। एवं रीत्या संकलित विवरणेभ्यो जनेभ्यो नेपाल सर्वकारस्य पक्षतः सम्मान परिचय पत्र प्रदानस्य सम्बन्धे मन्त्रिपरिषदा आगामिनि उपवेशे प्रस्तावं प्रस्तोतुं परराष्ट्रमन्त्रिणः प्रदीप कुमार ग्यवालिनः संयोजकत्वे समितिं संघटयितुं निर्णीतमिति संचारमन्त्री गुरूङ अब्रवीत्। कोविड विषाणोः विरोधिनः टीकाकरणस्य शुभारम्भम् आलक्ष्य हर्षम् अभिव्यज्यमानः सञ्चारमन्त्री गुरूङ स्वास्थ्य सावधानताम् मापदण्डस्य पालनं च न त्यक्तुं सर्वान् अन्वरुणत्। सञ्चारमन्त्री गुरूङ भारतात् प्राप्तं कोविडशील्ड टीकाकरणं विभिन्नैः राष्ट्रैः स्वीकृतमस्ति हेतोः टीकाकरण विषयकम् अनर्गल प्रवादं न विश्वस्तुम् अपि सर्वान् अन्वरुणत्। वन वातावरण मन्त्री प्रेमबहादुर आले कथयति वैज्ञानिक वन व्यवस्थापन कार्यम् निरस्तीकृत्य स्थिर वन व्यवस्थापनस्य माध्यमेन वनजन्य स्रोतसाम् उपयोग करिष्यते। मन्त्रालये ह्य आयोजिते पत्रकार सम्मेलने मन्त्री आले अवोचत् वैज्ञानिक वन कार्यक्रमस्य नाम्नि अवैध रूपेण वृक्षा कर्तिता इत्यतः स्थिर वन व्यवस्थापनस्य माध्यमेन कार्ययोजनाम् निर्माय अग्रे वर्धनस्य विषये विमृश्यमानम् वर्तते। मन्त्री आले बारा जनपदस्य निजगढ़स्थाने अन्तर्राष्ट्रिय विमानस्थलस्य निर्माण लक्षसो वृक्षा न कर्तिष्यन्ते, तत्कालं धावन मार्गस्य अत्यावश्यक पूर्वाधार निर्माण क्षेत्रस्य च वृक्षा एव कर्तिष्यन्ते इति समस्पष्टयत्। सर्वोच्च न्यायालये प्रतिनिधि सभायाः विघटनस्य विरूद्धे पञ्जीकारितानाम् आदेशाभियाचन निवेदनानां श्रवणं श्रवणस्य क्रमे एव अद्य गुरूवासराय निर्धारितं वर्तते। सर्वोच्च न्यायालयस्य सांविधानिक न्यायपीठे नैरन्तर्यं प्रचलति श्रवणे ह्योऽपि आदेशाभियाचन निवेदकानां पक्षतः विमर्शनस्य समाप्तेः कारणात् विमर्शनस्य क्रमे एव संस्थाप्य अद्य गुरूवासराय निर्धारितम् अस्ति। ह्यस्तनश्रवणे वरिष्ठाधिवक्तारः युवराज संग्रौलास, शेरबहादुर केसी, हरिहर दाहालस्थ निवेदकानां पक्षतः व्यमृशन्। नेपाल कम्युनिष्ट पार्टी दलस्य नेता वामदेव गौतमः भाषते जनतायाः बहुदलीय जनवादे विश्वस्तैः वामदल जनैः सर्वोच्च न्यायालयेन विहितः यः कोऽपि निर्णयः स्वीकर्तव्यः। नेपाल कम्युनिष्ट पार्टी एकता राष्ट्रियाभियानम् ह्यो ललितपुरे उद्घाटयन् नेता गौतमः अवोचत् दलद्वयमेव एकीकृत्य वामान्दोलनस्य लक्ष्य प्रापणम् अभियानस्य उद्देश्यम् वर्तते। अद्य पौष शुक्ल पूर्णिमा स्वस्थानी व्रतारम्भ दिवसो वर्तते। अद्य तो माघ शुक्ल पूर्णिमा यावत् मासावधि प्रतिग्रियम् स्वस्थानी परमेश्वर्याः व्रत पूजाराधन कथा श्रवणादि कार्याणि विधीयन्ते इति समाचारः।